किञ्चिदेवलोकानां भवदावरणं प्रति न किञ्चिदेव भक्तानां भवदावरणं प्रति अप्युपाय क्रमप्राप्यः संकुलोपि विशेषणैः भक्तिभाजां भवानात्मा सकृत् शुद्धो वभासते जयन्तोपि हसन्ते ते जिता भवद्भक्ति सुधापान मत्ता के प्येवये प्रभो सत्येन भगवन्नान्यः प्रार्थना प्रसरोऽस्ति मे केवलं सदथा भक्त्यावेशोऽस्तु मे सदा भक्तिक्षीवोऽपि कोऽप्येयं भवायानुशय च तथा हसेयं रोद्यां जरतेयं च शिवेत्यलम् विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि गम्भीरोऽपि विचेतोऽपि भवेयं भक्तितः प्रभो दुःखापि संवित् त्वच्चन्द्रिकामयी मानावमान रागादि निष्पाक विमलं मनः यस्यासौ भक्तिमान् लोक तुल्यशीलः कथं भवे यस्य भक्ति सुधास्नान पानादि विधि साधनम् तस्य प्रारब्ध मध्यान्तर्दशा सूचै सुखासिकाः साकारो वा सर्वथासि सुधामयः गुह्ये भक्तिः परे भक्तिः भक्तिर्विश्वमहेश्वरे त्वयि शम्भो शिवे देव भक्तिर्नाम किमप्यहो भक्तिर्भक्ति परे भक्ति भक्तिर्नाम समुद्गता तारं विरोमि यतीव्रा भक्तिर्मेस्तु परं त्वयि पानाशन प्रसाधन संभूत समस्त विश्वया शिवया प्रलयोत्सव सरभसया दृढ़मुपगूढ़ शिवम् वन्दे दृढ़मुपगूढ़ शिवम् वन्दे शिवम् वन्दे।